हरि ओम भूमिर्भुवनाश्चोर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यरिदेक्यमन्नादमन्नात्याजादधे आयंगोः पृष्टिरक्तमीरसनन्मातरं पुनः पितरं च प्रजं सुवः त्रिंशत्था भविरादिदिवाक्पतङ्गादिस्तये प्रत्यस्तव हत्युभिः अस्य प्राणादपारत्यं दस्तरिदिरोचना यक्षं महिषस्वः यत्वा क्रुद्धपुरोपमन्युनायरवर्त्या सुकल्पमग्ने तत्त्वपुनस्त्वोद्दीपयामसि यत्ते मञ्जुपरोक्तस्य पृथिवी मनदध्वसे आदित्या विश्वे तद्देवा असमस्तसमाभरन् मनोज्योतिर्तिषतापाद्यं विच्छन्नं यज्ञकोशभिमन्दधातु बृहस्पतिस्तनताभिमल्नो विश्वे देवा इहमारयन्ताम् सप्तते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्तधाम प्रियाणि सप्तहोत्रा सप्तधात्वा यदन्ति सप्तयो नीरा पुनस्ता घृतेन पुनरूर्जानुवर्तस्त पुनरग्न ईशायुषा पुनर्नः पाहि विश्वतः सहरय्यानुवर्तस्वाग्ने पिण्वस्वधारया विश्वप्स्निया विश्वरस्परि लेखस्य लेखस्सुलेखस्तेन आदित्या आद्यञ्जुषाणापियन्तु केतस्य केतस्युकेतस्तेन आदित्या आज्यञ्जुषाणापियन्तु विवस्वाकम् अरिधिर्देवज्योतिस्तेन आदित्या आज्यञ्जुषाणापियन्तु महीत्यौः पृथिवीचन इमं यज्ञं ममिक्षताम् पिपृताम् नो भरीमभिः ॐ शान्तिः शान्तिः शान्तिः।